यदा सृष्टं जगत्सर्वं तदा लोकपितामहः चतुर्वेद समायुक्तं शाश्वतं धर्ममादिशत् किं सत्कर्म किमध्यात्मं यदि विज्ञातुमर्हति सर्वशास्त्रेषु ग्रन्थेषु प्रमाणं परमं श्रुतिः अस्पष्टं च कदा स्पष्टं तत्त्वज्ञानविवेचनम् अन्यत्र लभ्यते किन्तु प्रमाणं परमं श्रुतिः आर्षग्रन्थेषु सर्वेषु श्रुतिप्रामाण्यमेव च सर्वतः सारमादद्यान्निजकल्याणहेतवे शुष्कवादरताः केचिन्नान्यदस्तीति वादिनः सर्वे ते विलयं यान्ति मिथ्याकलहकारिणः नास्तिका वेदनिन्दकाः पाखण्डा वेददूषकाः एते सर्वे विनश्यन्ति मिथ्याचारप्रवर्तकाः यज्ञदानतपःकर्म स्वाध्यायनिरतो भवेत् एष एव हि श्रुत्युक्तः सत्यधर्मः सनातनः यज्ञधर्मं चरामि दानधर्मं चरामि तपोधर्मं चरामि कर्मधर्मं चरामि स्वाध्यायधर्मं चरामि पुनरपि यज्ञधर्मं चरामि पुनरपि दानधर्मं चरामि पुनरपि तपोधर्मं चरामि पुनरपि कर्मधर्मं चरामि पुनरपि स्वाध्यायधर्मं चरामि पुनः पुनरपि यज्ञधर्मं चरामि पुनः पुनरपि दानधर्मं चरामि पुनः पुनरपि तपोधर्मं चरामि पुनः पुनरपि कर्मधर्मं चरामि पुनः पुनरपि स्वाध्यायधर्मं चरामि सत्यं शरणं गच्छामि सत्यधर्मं शरणं गच्छामि सत्यधर्मसङ्गं शरणं गच्छामि सत्यं शरणं गच्छामि सत्यधर्मं शरणं गच्छामि सत्यधर्मसङ्गं शरणं गच्छामि सत्यं शरणं गच्छामि सत्यधर्मं शरणं गच्छामि सत्यधर्मसङ्गं शरणं गच्छामि
यदा सृष्टं
जगत्सर्वं
तदा लोकपितामहः
चतुर्वेद
समायुक्तं
शाश्वतं
धर्ममादिशत्
किं सत्कर्म
किमध्यात्मं यदि
विज्ञातुमर्हति
सर्वशास्त्रेषु
ग्रन्थेषु
प्रमाणं
परमं
श्रुतिः
अस्पष्टं
च कदा
स्पष्टं
तत्त्वज्ञान
विवेचनम्
अन्यत्र
लभ्यते
किन्तु
प्रमाणं
परमं
श्रुतिः
आर्ष
ग्रन्थेषु
सर्वेषु
श्रुति
प्रामाण्यमेव
च
सर्वतः
सार
मादद्यान्
निज कल्याण
हेतवे
शुष्क
वाद
रताः
Rata
Kechin
Kechin
Nanya
Nanya
Dastiti
Dastiti
Vadinaha
Vadinaha
Sarvete
Sarvete
Vilayam
Vilayam
Yanti
Yanti
Mithya
Mithya
Kalaha
Kalaha
Karinaha
Karinaha
Nastika
Nastika
Veda
Veda
Nindakaha
Nindakaha
Pakhanda
Pakhanda
Veda
Veda
Dushakaha
Dushakaha
Ete
Sarve
Vinashanti
Vinashanti
Mithyachara
Mithyachara
Pravartakaha
Parvartakaha
Yajnadana
Yajnadana
Tapakarma
Tapakarma
Svadhyaya
Svadhyaya
Nirato
Nirato
Bhavet
Bhavet
Esha Evahi
Esha Evahi
Shrutyuktaha
Shrutyuktaha
Satyadharma
Satyadharma
Sanatanaha
Sanatanaha